असा अभिसामा अर्षा वृषा हरिराजे एव तस्मा अभिगा अधिक्रदत पुनानो वारम्बर्ये इत्यव्ययम् शेनानजानिम् घृतवन्तमासतम् कविर्वेधस्यापर्ये शिवाहिनमत्यो न मृष्टो अभिवाजमर्षसे अपसे धन्दुरितासामृणय घृतम् वसा नः पर्यासि निर्णिजम् पर्जन्यः पितामहिषस्य पर्णिनानाभा पृथिव्या गिरिशक्षयम् दधे स्वसार आप अभिका उदासरान् सङ्ग्राम भर्णसदे भीते अध्वरे जाये पपत्यापधिषे मम हसय वज्रा आजागर्भशृणहि ब्रवीमिते अन्तर्वाणीषु प्रजरा सुजीवसे निन्द्यावृजने स्वामजागृहे यथा पूर्वेभ्यः शतसा अमृद्धः सहस्रसाः पर्यजा वाजमिन्द एवापवस्व सुविता जनप्यसेतवौ रतमन्वापः सजन्ते